इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। राज्यसभायां निक्षेपकानां निवेशकानां च कृते उत्तम संरक्षणं सुनिश्चेतुं तथा च बैंक मध्ये सेवायाः गुणवत्तां वर्धयितुं च गतवर्षस्य बैंकिंग विधे संशोधनं विधेयकं विचारार्थं अनुमोदनाय च स्वीकृतम्। भारतीय जनता पार्टीति दलस्य अल्पसंख्यक पक्षः ईद पर्वणः पूर्वं अभिलषितेभ्यः मुस्लिम परिवारेभ्यः सौगाते मोदी इत्येतस्य अभियानस्य प्रारम्भम् अकरोत्। दक्षिण कोरिया देशे अरण्याग्नि कारणेन चतुर्विंशतिः जनाः मृताः। थाईलैंड देशस्य प्रधानमन्त्री पेटोंग गटार्न सिनावात्रा अद्य अविश्वास प्रस्तावात् विमुक्ता जाता। अपि च गुवाहाट्याम् आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले राजस्थान रॉयल्स इत्येतत् दलम् कोलकाता नाइट राइडर्स दलम् सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। राज्यसभायां निक्षेपकानां निवेशकानां च कृते उत्तम संरक्षणं सुनिश्चेतुं तथा च बैंक मध्ये सेवायाः गुणवत्तां वर्धयितुं च गतवर्षस्य बैंकिंग विधे संशोधनं विधेयकं विचारार्थम् अनुमोदनाय च स्वीकृतम्। विधेयके निदेशक पदेभ्यः पर्याप्त ऋणवृद्धिं पुनर्परिभाषितुम् अपि प्रस्तावः अस्ति, यत् पञ्चलक्षरूप्यकाणां स्थाने द्विकोटिरूप्यकाणि यावत् वर्धितुं शक्यते। विधेयकमिदं वित्तकोषेभ्यः स्वपरिशोधकानां वेतनं निर्णेतुम् अधिकारं ददाति। लोकसभायाम् अस्य वर्षस्य त्रिभुवन सहकार विश्वविद्यालय विधेयकं चर्चायै अनुमोदनाय च स्वीकृतम्। विधेयकमिदं त्रिभुवन सहकार विश्वविद्यालय इति नाम्ना प्रसिद्धस्य विश्वविद्यालयस्य रूपेण ग्रामीण प्रबन्धन आनन्द संस्थानस्य स्थापनां कृत्वा तत् राष्ट्रिय महत्वस्य संस्थानरूपेण घोषयितुं प्रयतते। एषा संस्था सहकारी क्षेत्रे प्रौद्योगिकी प्रबन्धन शिक्षां प्रशिक्षणं च प्रदास्यति, सहकारी अनुसन्धानस्य विकासस्य च प्रोत्साहनं करिष्यति तथा सहकारेण समृद्धि इति दृष्टिं साधयितुम् उत्कृष्टतयाः वैश्विक मानकं प्राप्स्यति। एतत् संस्थानानां माध्यमेन देशे सहकारी आन्दोलनम् अपि सुदृढं करिष्यति तथा च संस्थां विश्वविद्यालयस्य विद्यालयेषु अन्यतमम् इति घोषयिष्यति।
जो देश में एक प्रकार से हर परिवार को छूता है, हर गांव में कोई न कोई ऐसी इकाई है जो सहकारिता के माध्यम से कृषि विकास, ग्रामीण विकास और स्वरोजगारी के काम के अंदर जुटी हुई है, देश के विकास के अंदर योगदान करती है। और ये जो विधेयक है ये आपके माध्यम से पारित होने के बाद इससे ग्रामीण अर्थव्यवस्था सशक्त होगी, स्वरोजगार और छोटी उद्यमिता इसका विकास होगा, सामाजिक समावेशन भी बढ़ेगा और नवाचार और अनुसंधान में भी कई नए मानांक गढ़ने के लिए मौके उपलब्ध होंगे।
अस्मिन् विषये चर्चा अधुनापि प्रचलति। भारतीय जनता पार्टीति दलस्य अल्पसंख्यक पक्षेण सौगाते मोदी इत्येतद् अभियानं प्रारब्धम्। अस्योद्देश्यम् अशेषे हि देशे द्वात्रिंशल्लक्षं यावत् निर्धन मुस्लिम परिवारेभ्यः ईद पर्वणः अवसरे विशेषोपहारस्य वितरणं वर्तते। आकाशवाण्याः सह वार्तावधौ भाजपा अल्पसंख्यक पक्षस्य राष्ट्रियाध्यक्षः जमाल सिद्दीकी उक्तवान् यत् पवित्र रमजान मासस्य नवरोज इत्यस्य भारतीय नववर्षस्य च सदृशानाम् आगामि अवसराणाम् अवधौ अल्पसंख्यक पक्षः सौगाते मोदी इत्यभियानस्य अन्तर्गतम् अभिलषितानां साहाय्यं प्रयासं करिष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्चन्यायालयेन इलाहाबाद उच्चन्यायालयस्य निर्णयः स्थगितः। उक्तं च यत् अस्मिन् निर्णये संवेदनशीलतायाः अभावो वर्तते। इलाहाबादस्य उच्च न्यायालयस्य विवाद पूर्णादेशानुसारेण अनुचितेन स्पर्शेन उतवा वस्त्र विरूपणेन वा दुष्कर्मस्य प्रयासः न भवति तथा च अभियोजनपक्षेण दुष्कर्मस्य आरोपान् साधयितुम् अधिकानि प्रमाणानि प्रस्तूयन्ते इति इलाहाबादस्य उच्च न्यायालयस्य मार्च मासस्य 17 दिनांकस्य निर्णयस्य विरुद्धं वयं भारतस्य महिलाः इति संघटनेन सर्वोच्च न्यायालये विषयोऽयम् उत्थापितः अद्य छत्तीसगढ़स्य सुकाम जनपदे षड् महिलाभिः सह 9 माओवादिनः आत्मसमर्पणम् अकुर्वन् तेषां ग्रहणार्थं 20 लक्ष रूप्यकाणां पुरस्कारस्य घोषणा कृता आसीत् एते माओवादिनः अनेकेषु प्रमुखेषु घटनासु सम्मिलिताः आसन् राज्यसभायाः अध्यक्षः जगदीप धनखड़ः अद्य उक्तवान् यत् देशे सर्वासु संस्थासु एकत्रीभूय कार्यं कर्तव्यं भवति सहैव अन्वेषणं सन्तुलनं च भवेत् यस्य अभिप्रायः उचितमेव अस्ति अध्यक्षेण सदनस्य शून्यहोरासमये एतद् वक्तव्यं प्रदत्तम् सहैव असौ दिल्ल्याः उच्चन्यायालयस्य न्यायाधीशस्य यशवन्तवर्मा इत्यस्य निवासस्थानात् प्राप्तधनानां विषये सदनस्य नेतृभिः सह ह्यः जातस्य उपवेशनस्य उल्लेखनं कृतवान् श्रीधनखड़ः उक्तवान् यत् उपवेशनं सफलम् आसीत् इति विचाराः सर्वसम्मतिपूर्णाः आसन् ये सहकार्यं चिन्तां च प्रतिबिम्बयति
All the institutions in the country have to function in tandem, in togetherness, and also there are checks and balances which are well meant. It has been given by both leader of the house and leader of the opposition that after having wider consultations amongst all concerned in their respective parties and otherwise, they would come to the chairman for further deliberations. That was the conclusion after both leader of the house and leader of the opposition had shared their thoughts along with others.
प्रियाः श्रोतारः लोकसभायाम् अस्य वर्षस्य त्रिभुवन सहकार विश्वविद्यालय विधेयकं चर्चायै अनुमोदनाय यत् स्वीकृतम् आसीत् तद् विधेयकम् अनुमोदितम् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् आभासीय माध्यमैः सम्पद्यमानानां द्यूतक्रियाकलापानां निवारणे महत्वपूर्णः परिष्कारः अभवत् भारतीय अन्तर्जालीयापराध समन्वय केन्द्रस्य प्रतिवेदनानाम् अनन्तरं प्रशासनेन सूचना प्रौद्योगिकी मध्यस्थ नियमानुसारं 10,400,000 यावत् आभासीय क्रीडास्थलानि अवरुद्धानि सन्ति अद्य लोकसभायां पूरक प्रश्नानाम् उत्तरं ददन् श्रीवैष्णवः अवदत् यत् द्यूतं राज्यसूच्याः भागः अस्ति तथा च राज्यप्रशासनस्य पार्श्वे तस्य कृते विधायी रूपरेखां निर्मातुम् अधिकारो वर्तते
जो हमारी स्टेट लिस्ट है लिस्ट 2 उसमें एंट्री 34 में बेटिंग एंड गैम्बलिंग आता है तो राज्य सरकारों को इसका लेजिस्लेटिव फ्रेमवर्क बनाने का पावर है कुछ राज्यों ने इसमें पहल भी की है और इसके अलावा भारत की जो नई न्याय संहिता है भारतीय न्याय संहिता उसमें सेक्शन 112 में भी इसमें एक्शन लिया जा सकता है इसके साथ ही साथ कई ऐसे स्टेप्स लिए गए जो I4C उसके माध्यम से जहां से भी कंप्लेंट आती है उस कंप्लेंट के बेसिस पे जो IT इंटरमीडिएटरी रूल है उसके हिसाब से 1,410 गेमिंग साइट्स को ऑलरेडी ब्लॉक किया जा चुका है
दक्षिण कोरिया देशे वनस्य अग्नि प्रकोपेन दक्षिण पूर्व भागे 24 जनाः मृताः 26 जनाः व्रणिताः च अभवन् यत्र व्रणितेषु 12 जनानां स्थितिः गभीरा वर्तते थाईलैंड देशस्य प्रधानमन्त्री पेटोंग गटार्न श्रीनावात्रा अद्य अविश्वास प्रस्तावात् विमुक्ता जाता येन संसदि तस्याः संयुक्त्याः सामर्थ्यस्य पुष्टिः अभवत् दिल्ल्यां खेलो इंडिया पैरा क्रीडायाः सप्तमे दिने भारोत्तोलकः दिनेश वगाडे इत्यनेन 70 किलोग्राम मिते वर्गे स्वर्ण पदकं प्राप्तवान् दिव्येश लदानी रजत पदकं जोगिन्दर सिंहः च कांस्य पदकं प्राप्तवान् IPL क्रिकेट क्रीडायाम् अद्य गुवाहाट्याः क्रीडांगणे सायंकाले राजस्थान रॉयल्स इत्येतत् दलं कोलकाता नाइट राइडर्स दलं सम्मुखी करिष्यति इति वार्ताः